श्री गणेशस्य प्रातः स्मरणम्। प्रातः स्मरामि गणनाथ मनाथ बन्धुं सिन्दूरपूरपरिशोभित गण्डयुग्मम् उदण्डविघ्नपरिखण्डन चण्डदण्डम् आखण्डलादिसुरनायकवृन्दवन्द्यम् प्रातर्नमामि चतुरानन वन्द्यमानम् इच्छानुकूलमखिलं च वरं ददानम् तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रम् पुत्रं विलासचतुरं शिवयोः शिवाय प्रातर्भजाम्यभयदं खलु भक्तशोक दावानलं गणविभुं वरकुञ्जरास्यम् हव्यवाहम् उत्साहवर्धनमहं सुतमीश्वरस्य श्लोकत्रयमिदं पुण्यं सदा साम्राज्यदायकम् सततं यः पठेत् प्रयतः पुमान्। इति श्रीगणेशस्य प्रातः स्मरणं सम्पूर्णम्।